ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। मैत्रेय उवाच। विजिताश्वोधिराजासीत् पृथुपुत्रः पृथुश्रवाः, यवीयोभ्यो ददात् काष्ठा भ्रातृभ्यो भ्रातृवत्सलः। हर्यक्षाय दिशत् प्राचीम्, धूम्रकेशाय दक्षिणाम्, प्रतीचीम् मृकसंज्ञाय तुर्याम् द्रविणसे विपुः। अन्तर्धानगतिम् शक्राल्लब्ध्वान्तर्धानसङ्गितः, अपत्यत्रयमाधत्त शिखण्डिन्याम् सुसम्मतम्। पावकपवमानस्य शुचिरित्यग्नयः पुरा, वसिष्ठसापादुत्पन्नाः पुनर्योगगतिम् गताः। अन्तर्धानो नभस्वत्याम् हविर्धानमविन्दत, य इन्द्रमश्वहर्तारम् विद्वानपि न जग्निवान्। राज्ञाम् वृत्तिम् करादान दण्डशुल्कादिदारुणाम्, मन्यमानो दीर्घसत्रव्याजेन विससर्जः। तत्रापि हंसम् पुरुषम् परमात्मानमात्मदृक् यजंस्तल्लोकतामाप कुशलेन समाधिना। हविर्धानाद्धविर्धानि विदुरासूतसत्सुतान्, बरिषदम् गयम् शुक्लम् कृष्णम् सत्यम् जितव्रतम्। बरिषत्सु महाभागो हाविर्धानिः प्रजापतिः, क्रियाकाण्डेषु निष्णातो योगेषु च कुरुद्वः। यस्येदम् देवयजन मनुयज्ञम् वितन्वतः, प्राचीनाग्रहिकुशैरासीदाश्रितम् वसुधातलम्। सामुद्रीम् देवदेवोक्तामुपयेमे शतद्रुतिम्, याम् वीक्ष्य चारु सर्वाङ्गीम् किशोरीम् सुष्ठ्वलङ्कृताम्। परिक्रमन्ति मुद्वाहे चकमेऽग्निः शुकीमिव, विबुधा सुरगन्धर्व मुनिसिद्धनरोरगाः। विजिताः सूर्ययादिक्षु कुणयन्त्यैव नूपुरैः, प्राचीनबरिसः पुत्रा शतद्रुत्याम् दशाभवन्। तुल्यनामव्रताः सर्वे धर्मस्नाताः प्रचेतसः, पित्रादिष्टा प्रजा सर्गे तपसेर्णवमाविशन्। दशवर्षसहस्राणि तपसार्चन्स्तपस्पतिम्, यदुक्तम् पथि दृष्टेन गिरिशेन प्रसीदता। तध्यायन्तो जपन्तश्च पूजयन्तश्च संयताः। विदुर उवाच। प्रचेतसाम् गिरित्रेण यथासीत् पथिसङ्गमः, यदुताः हरः प्रीतस्तन्नो ब्रह्मन् वदार्थवत्। सङ्गमः खलु विप्रर्षे शिवेनेह शरीरिणाम्, दुर्लभो मुनयो दध्युरसङ्गाद्यमभीप्सितम्। आत्मा रामोऽपि यस्त्वस्य लोककल्पस्य राधसे, शक्त्या युक्तो विचरति घोरया भगवान् भवः। मैत्रेय उवाच। प्रचेतस पितुर्वाक्यम् शिरसादाय साधवः, दिशम् प्रतीचीम् प्रययुस्तपस्या धृतचेतसः। समुद्रमुपविस्तीर्णमपश्यन्सु महत्सरः, महन्मन इव स्वच्छम् प्रसन्नसलिलाशयम्। नीलरक्तोत्पलाम्भोज कल्लारेन्दीवराकरम्, हंससारसचक्राव कारण्डवनिकूजितम्, मत्तभ्रमरसौस्वर्य हृष्टरोमलताङ्घ्रिपम्, पद्मकोशरजोदिक्षु विक्षिपत्पवनोत्सवम्। तत्र गान्धर्वमाकर्ण्य दिव्यमार्गमनोहरम्, विसिस्म्यौ राजपुत्रास्ते मृदङ्गपणवाद्यनु, तर्येव सरसस्तस्मान् निष्क्रामन्तम् सहानुगम्। उपगीयमानमरप्रवरम् विबुधानुगैः, तप्तहेमनिकायाभम् शितिकण्ठम् त्रिलोचनम्, प्रसादसुमुखम् वीक्ष्य प्रणेमुर्जातकौतुकाः। सतान् प्रपन्नार्तिहरो भगवान् धर्मवत्सलः, धर्मज्ञान् शीलसम्पन्नान् प्रीतः प्रीतानुवाचः। श्रीरुद्र उवाच। यूयम् वेदिषतः पुत्रा विदितम् वश्चिकीर्षितम्, अनुग्रहाय भद्रम् व एवम् मे दर्शनम् कृतम्। यः परम् ब्रह्म स साक्षात् त्रिगुणाज्जीवसङ्गितात्, भगवन्तम् वासुदेवम् प्रपन्नः स प्रियो हि मे। स्वधर्मनिष्ठ शतजन्मभिप्पुमान् विरिञ्चिता मेति ततः परम् हि माम्। अव्याकृतम् भागवतोऽथ वैष्णवम् पदम् यथाहम् विबुधा कलात्यये। अथ भागवता यूयम् प्रियास्थ भगवान् यथा, न मद्भागवतानाम् च प्रेयानन्योऽस्ति कर्हिचित्। इदम् विविक्तम् जप्तव्यम् पवित्रम् मङ्गलम् परम्, निःश्रेयसकरम् चापि श्रूयताम् तद्वदामि वः। मैत्रेय उवाच। इत्यनुक्रोशहृदयो भगवानाहतान् शिवः, बद्धाञ्जलीन् राजपुत्रान्नारायणपरोवचः। श्रीरुद्र उवाच। जितम् तात्मविद्धुर्यः स्वस्तये स्वस्तिरस्तु मे, भवता राजसाराद्धम् सर्वस्मात्मने नमः। नमः पङ्कजनाभाय भूतसूक्ष्मेन्द्रियात्मने, वासुदेवाय शान्ताय कूटस्थाय स्वरोचिषे, सङ्कर्षणाय सूक्ष्माय दुरन्तायान्तकाय च, नमो विश्वप्रबोधाय प्रद्युम्नायान्तरात्मने, नमो नमो निरुद्धाय ऋषिकेशेन्द्रियात्मने, नमः परमहंसाय पूर्णाय निभृतात्मने, स्वर्गापवर्गद्वाराय नित्यम् शुचिसदे नमः, नमो हिरण्यवीर्याय चातुर्होत्राय तन्तवे, नम ऊर्जयिषे त्रय्याः पतये यज्ञरेतसे, तृप्तिदायतजीवानाम् नमः सर्वरसात्मने, सर्वसत्त्वात्मदेहाय विशेषाय स्थवीयसे, नमस्त्रैलोक्यपालाय सह ओजो बलाय च अर्थलिंगाय नभसे नमोऽन्तर्बहिरात्मने नमः पुण्याय लोकाय अमुस्मै भूरिवर्चसे प्रवृत्ताय निवृत्ताय पितृदेवाय कर्मणे नमो धर्मविपाकाय मृत्यवे दुःखदाय च नमस्ताशिषामीश मनवे कारणात्मने नमो धर्माय बृहते कृष्णाय कुण्ठमेधसे पुरुषाय पुराणाय सांख्ययोगेश्वराय च शक्तित्रयसमेताय मीरुषे हंकृतात्मने चेताकूतिरूपाय नमो वाचो विभूतये दर्शनं नो दिदृक्षूणां देहि भागवतार्चितं रूपं प्रियतमं स्वानां सर्वेन्द्रियगुणाञ्जनं स्निग्धप्राविड्घनश्यामं सर्वसौन्दर्यसंग्रहं चार्वायतचतुर्बाहुं सुजातरुचिराननं पद्मकोशपलाशाक्षं सुन्दरभ्रूसुनासिकं सुद्विजं सुकपोलास्यं समकर्णविभूषणं प्रीतिप्रहसितापाङ्गमलकैरुपशोभितं लसत्पङ्कजकिञ्जल्कदुकूलं मृष्टकुण्डलं स्फुरत्किरीटवलयहारिनूपुरमेखलं शङ्खचक्रगदापद्ममालामण्युत्तमर्धिमत् सिंहस्कन्धत्विषो बिभ्रत्सौभगग्रीवकौस्तुभं श्रियानपायिन्याक्षिप्तनिकषास्मोरसोल्लसत् पूररेचकसंविघ्नवलिवल्गुदलोदरं प्रतिसङ्क्रामयद्विश्वं नाभ्यावर्तगभीरया श्यामश्रोण्यधिरोचिष्णुदुकूलस्वर्णमेखलं समचारवङ्घ्रिजङ्घोरु निम्नजानुसुदर्शनं पदाशरत्पद्मपलाशरोचिषा नखद्युभिर्नोऽन्तरघं विधुन्वता प्रदर्शय स्वीयमपाश्च साध्वसम्पदं गुरो मार्गगुरुस्तमोजुषाम् एतद्रूपमनुध्येयमात्मशुद्धिमभीप्सताम् यद्भक्तियोगो भयतः स्वधर्ममनुतिष्ठताम् भवान् भक्तिमता लभ्यो दुर्लभः सर्वदेहिनाम् स्वाराज्यस्याप्यपि मत एकान्तेनात्मविद्गतिः तं दुराराध्यमाराध्य सतामपि दुरापया एकान्तभक्त्या को वाञ्छेत् पादमूलं विना बहिः यत्र निर्विष्टमरणं कृतान्तो नाभिमन्यते विश्वं विध्वंसयन् वीर्यशौर्यविस्फूर्जितभ्रुवा क्षणार्धेनापि तुलये न स्वर्गं न पुनर्भवं भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः अथा नघाङ्ग्रेस्तव कीर्तितीर्थयोरन्तर्बहिः स्नानविधूतपाप्मनां भूतेष्वनुक्रोशसुसत्त्वशीलिनां स्यात्सङ्गमोऽनुग्रह एष नस्तव न यस्य चित्तं वैरर्थविभ्रमं तमो गुहायां च विशुद्धमाविशत् यद्भक्तियोगानुगृहीतमञ्जसा मुनिर्विचष्टे ननु तत्र ते गतिम् यत्रेदं यज्यते विश्वं विश्वस्मिन्नवभाति यत् तत्त्वं ब्रह्मपरं ज्योतिराकाशमिव विस्तृतं यो माययेदं पुरुरूपया सृजद्विभर्ति भूय क्षपयत्यविक्रियः यद्भेदबुद्धि सदिवात्मदुस्थया तमात्मतन्त्रं भगवन् प्रतीमहि क्रियाकलापैरिदमेव योगिनः श्रद्धान्विता साधु यजन्ति सिद्धये भूतेन्द्रियान्तःकरणोपलक्षितं वेदे च तन्त्रे च त एव कोविदाः त्वमेकाद्य पुरुष सुप्तशक्तिस्तया रजसत्त्वतमो विभिद्यते महानहं खं मरुदग्निवार्धराः सुरर्षयो भूतगणा इदं यतः सृष्टं स्वशक्त्येदमनुप्रविष्टश्चतुर्विधं पुरमात्मांशकेन अथो विदुस्तं पुरुषं सन्तमन्तर्भुङ्क्ते ऋषिकैर्मधुसारघं यः स एष लोकानतिचण्डवेगो विकर्षसि त्वं खलु कालयानः भूतानि भूतैरनुमेयतत्त्वो घनावलीर्वायुरिवा विषय्यः प्रमत्तमुच्चैरिति कृत्य चिन्तया प्रवृद्धलोभं विषयेषु लालसं त्वमप्रमत्तः सहसा विपद्यसे क्षुल्ले लिहानो हिरिवाकुमन्तकः कस्त्वत्पदाब्जं विजहाति पण्डितो यस्तेव मानव्ययमानकेतनः विशङ्कयास्मद्गुरुरर्चति स्म यत् विनोपपत्तिं मनवश्चतुर्दश अथ त्वमसि नो ब्रह्मन् परमात्मन् विपश्चिताम् विश्वं रुद्रभयध्वस्तमकुतश्चिद्भयागतिः इदं जपतभद्रं वो विशुद्धा नृपनन्दनाः स्वधर्ममनुतिष्ठन्तो भगवत्यर्पिताशयाः तमेवात्मानमात्मस्थं सर्वभूतेष्वस्थितं पूजयध्वं गृणन्तश्च ध्यायन्तश्च सकृद्धरिं योगादेशमुपासाद्य धारयन्तो मुनिव्रताः समाहितधियः सर्व एतदभ्यसतादृताः इदमाह पुरास्माकं भगवान् विश्वसृक्पतिः भृग्वादीनामात्मजानां सिसृक्षुः संसिसृक्षताम् ते वयं नोदिताः सर्वे प्रजासर्गे प्रजेश्वराः अनेन ध्वस्ततमसः सिसृक्ष्मो विविधाः प्रजाः अथेदं नित्यदा युक्तो जपन्नवहितः पुमान् अचिराच्छ्रेयाप्नोति वासुदेवपरायणः श्रेयसामिह सर्वेषां ज्ञानं निःश्रेयसं परं सुखं तरति दुष्पारं ज्ञाननौर्व्यसनार्णवम् य इमं श्रद्धया युक्तो मद्गीतं भगवत्स्तवम् अधीयानो दुराराध्यम हरिमाराध यत्यसौ विन्दते पुरुषो मुस्मात् यद्यदिच्छत्य सत्वरम् मद्गीत गीतात् सुप्रीतात् श्रेयसामेकवल्लभात् इदं यः कल्य उत्थाय प्राञ्जलि श्रद्धयान्वितः शृणुयाच्छ्रावयेन्मर्त्यो मुच्यते कर्म बन्धनैः गीतं मयेदं नरदेव नन्दनाः परस्य पुंसः परमात्मनस्तवम् जपन्त एकाग्रधियस्तपो महच्चरध्वमन्ते तथाप्स्यथेप्सितम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् चतुर्थस्कन्धे रुद्रगीतम् नाम चतुर्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।